इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्दझाः। प्रधानमन्त्री नरेन्द्रमोदी ह्यः आर्थिक परामर्श परिषदः सदस्यैः समं आकारितस्य उपवेशनस्य अध्यक्षताम् अकरोत्। उपवेशने प्रधानमन्त्री परिषत्सदस्याश्च वैश्विका निश्चितताकाले भारतस्य भूयोऽपि आर्थिकवृद्धिं कर्तुं विभिन्नेषु परामर्शोपायेषु चर्चितवन्तौ। जीवनस्तरं व्यापारं च सुगमीकर्तुम् अपि सविस्तरं विचारणा जाता। सदस्यैः भारते विश्वे च पश्चिमैशिया संघर्षेण उत्पन्न प्रभावानाम् अपि आकलनं प्रस्तुतम्। विदेशमन्त्री डॉ सुब्रह्मण्यम जयशंकरः उक्तवान् यत् भारतं नेपालं च सुदीर्घ मुक्त सीमायां सुरक्षा व्यवस्थां प्रवर्तयितुं दृढतया सहयोगं कुरुतः। अपि च उभौ देशौ संकटकाले अपि सर्वदैव परस्परं साहाय्यं कुरुतः। नवदिल्ल्यां नेपालस्य विदेशमन्त्रिणा शिशिर खनालेन सह उपवेशने डॉ जयशंकरः अवदत् यत् उभयोः देशयोः सम्बन्धः जीवित जनसम्बन्धस्य सीमापार सम्पर्कस्य पारस्परिक सांस्कृतिक धार्मिक परम्पराणां च सुदृढाधारे विनिर्मितः अस्ति। केन्द्रीयः गृहमन्त्री अमितशाहः अन्ताराष्ट्रिय सीमासु वित्तीय व्यवहारस्य भवन निर्माणस्य सम्पत्ति क्रय विक्रयणस्य च विषये विशेष समवधानतायै आहूतवान्। एषः निर्देशः BSF इति सीमा सुरक्षाबलस्य त्रिपुरा सीमा मुख्यालये गृहमन्त्रिणः अध्यक्षतायाम् आकारिते पूर्वोत्तर राज्य सीमा क्षेत्र विषयके सम्मेलने प्रदत्तः। गृहमन्त्री विगत पञ्चवर्षाणां भूमिलेखानां परीक्षणाय अपि निर्दिष्टवान्। CBSE इति केन्द्रीय माध्यमिक शिक्षा परिषद अंकसत्यापनार्थं पुनर्मूल्यांकनार्थं च आवेदन समर्पणाय अन्तिमां तिथिं जून मासस्य सप्तम दिनांकपर्यन्तम् अग्रे सारितवती। परिषदा उक्तं यत् विद्यार्थिनः अद्य मध्यरात्रिं यावत् स्वावेदनानि अर्पयितुम् अर्हन्ति। इतः पूर्वम् आवेदन समर्पणाय अन्तिमा तिथिः अस्य मासस्य षष्ठः दिनांकः एव आसीत्। प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः FM गोल्ड प्रवाहिकातः अद्य मध्याह्ने 12:30 भविष्यति। भवन्तः सर्वे यथाकालं श्रोतुं प्रभवन्ति। भारतीयर्तुविज्ञान विभागेन अनुमितं यत् अद्य तटीय कर्णाटक माहे केरलेषु मूसलाधार वृष्टिः भविष्यति। पूर्वोत्तर राज्यानाम् अधिकतर भागेषु आभ्यन्तरीण कर्णाटके, गोवायां, तमिलनाडौ, पुदुच्चेर्याम्, अण्डमान निकोबार द्वीप समूहे च श्वः पर्यन्तं प्रबल वृष्टेः सम्भावना अस्ति। सम्प्रति क्रीडावार्तासु जापाने भारतस्य अन्तरष्टादश वयोवर्गीय पुरुषदलेन एशिया चषक हॉकी स्पर्धा मालिका जिता। निर्णायके द्वन्द्वे भारतेन जापानं 4-1 इति अंकान्तरालेन पराजितम्। उपराष्ट्रपतिः CP राधाकृष्णन्, प्रधानमन्त्री नरेन्द्रमोदी च उत्तम प्रदर्शनपरकम् एतं विजयम् अभिलक्ष्य भारतीय हॉकी दलं वर्धापितवन्तौ। गोवायां भारतेन सैफ महिला पादकन्दुकनायक स्पर्धा श्रृंखला विजिता। निर्णायके द्वन्द्वे भारतेन बांग्लादेशः 3-0 इति अंकान्तरालेन पराजितः। ध्यानास्पदम् अस्ति यत् भारतेन षष्ठवारम् एषा श्रृंखला जिता। अपरतः नव चण्डीगढे भारताफगानिस्तानयोः एकमात्र क्रिकेट निकषस्पर्धायाः प्रथमदिनस्य क्रीडासमाप्तिपर्यन्तं भारतेन क्रीडकत्रयस्य हानिपूर्वकम् 68-300 धावनांकाः अर्जिताः। अद्य भारतम् इतः अग्रे क्रीडिष्यति इति वार्ताः।